एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। प्रधानमन्त्री शेरबहादुर देउवा रामेछाप जनपदस्य मन्थली नगरपालिकायाः त्रयोदश वडा क्षेत्रवर्तिनी साँखेस्थाने निर्मितम् देशस्य द्वितीयम् विपुलम् विद्युत संयोजनोपकेन्द्रम् यः उद्घाटयत्। तामाकोशी नद्याः एतदीय सहायक नदीभ्यः खोलिकाभ्यस्य उत्पादितायाः विद्युतः संयोजकेन नवीन खिम्ती स्थानीयोपकेन्द्रेण आसन्न शतद्वयाधिक सहस्र मेगावाट क्षमताम् यावत् विद्युत् प्रवाहः सम्भविष्यति। संयोजनोपकेन्द्रस्य उद्घाटन समारोहं सम्बोधयन् प्रधानमन्त्री शेरबहादुर देउवा अवदत् नेपाले शुष्कयामे विपुलानां जलाशययुक्त परियोजनानां आवश्यकत्वात् बुढ़ी गण्डकी पश्चिम सेती परियोजना प्राथमिकतया अग्रे वर्धाप्यते। प्रधानमन्त्री देउवा अकथयत् शुष्कयामे वैकल्पिकोर्जसः व्यवस्थायां ध्यानं प्रदत्तं वर्तते। असौ जलविद्युदायोजनासु स्थानीय सर्वकारस्यापि अंशभागितायाः निवेश व्यवस्थापनस्य वातावरणं निर्मातव्यमिति तर्केन अवासत। अनेन कारेण आयोजनासु स्थानीय सर्वकारस्य स्वामित्वं तिष्ठति। प्रधानमन्त्री देउवा उपरितन तामाकोशी जलविद्युदायोजनया नेपालस्य विद्युत संकटस्य समाधानाय उल्लेख्य भूमिका निरूह्यते इति अतर्कयत्। कार्यक्रमे ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषालः अवोचत् आगामिनी वर्षद्वये सर्वेषां नेपालीनां कृते विद्युतः उपभोगस्य अवस्था स्रक्ष्यते। नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशकः कुलमान घिसिङ अकथयत् जनतायाः निवेशनेनैव विपुल परियोजनानाम् अग्रे वर्धनस्य पूर्वकार्य प्राधिकरणं वर्तते। प्रधानमन्त्री शेरबहादुर देउवा निगदति स्थानीय स्तराणाम् आगामि निर्वाचनम् निष्पक्षे स्वतन्त्रे भयरहिते च वातावरणे सम्पादयितुं सर्वैः प्रतिबद्धैर्भाव्यम्। काभ्रे पलाञ्चोक जनपदस्य तेमाल ग्रामपालिकायाः पोखरी नारायणस्थाने नवनिर्मितस्य प्राशासनिक भवनस्य उद्घाटन कार्यक्रमं ह्यः सम्बोधयन् प्रधानमन्त्री देउवा निर्वाचनस्य सर्वैः पक्षैः निष्पक्षे स्वतन्त्रे भयरहिते च वातावरणे सम्पादनस्य आवश्यकतां प्रादर्शयत्। प्रधानमन्त्री देउवा जनप्रतिनिधिभिः केवलं जनतया सह सम्बद्धानां कार्याणां सम्पादनमेव न एतेषु कार्येषु पारदर्शिता गुणस्तरीयता उत्तरदायित्वं जनतायाः आत्मीयत्वं च सुनिश्चेतव्यमिति अब्रवीत्। प्रधानमन्त्रिणा देउवाभिधेन भाषितं जनतायाः कार्याणि शीघ्रं सरलतया च केनापि प्रलोभनेन विना सम्पाद्य सकल नागरिकेषु सुशासनस्य प्रत्याभूत्यनुभावनं स्थानीय स्तराणां कर्तव्यं वर्तते। तत्पूर्व प्रधानमन्त्रिणा देउवाभिधेन तेमाल ग्रामपालिकायाः पञ्चम वडा क्षेत्रवर्तिनः पोखरी नारायण स्थानस्य एकस्मिन् एव स्थले निर्मितः स्वयम्भू बौद्ध नमो बुद्ध स्तूपः उद्घाटितः आसीत्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः भाषते देशजनतयोः रक्षायै स्वबलेन एव निर्वाचनं जेतव्यम्। ह्यः सिन्धुली माढ़ीस्थाने सिन्धुली जनपदीयस्य माओवादी केन्द्रस्य भवनम् उद्घाटयन् अध्यक्षः प्रचण्डः देशस्य जनतायाः संविधानस्य लोकतन्त्रस्य च रक्षायै केवलम् आत्मभिः उचिता भूमिका निर्वोढव्या इति अभाषत। प्रतिगमनकारिणः माओवादी केन्द्रस्य विनाशकारिणी षड्यन्त्रे सक्रियाः सन्तीति हेतोः प्रतिगृहं गत्वा जनतया सह सम्बन्धं स्थापयितुम् अपि अध्यक्षः प्रचण्डः कार्यकर्तृन् अन्वरुणत्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्षः माधव कुमार नेपालः ब्रवीति नेकपा एमाले दलस्य राजनीतिक भविष्यं नास्ति। गोर्खा मुख्यालये ह्यः आयोजिते कार्यक्रमे अध्यक्षः नेपालः अब्रवीत् एकीकृत समाजवादी दलं क्रान्तिकारी विचारेण अग्रे वर्धमानमस्तीति हेतोः दलं उपयुक्त वामदलस्य रूपेण स्थापनीयम्। अध्यक्षः नेपालः प्रत्येकं वर्गस्य समुदायस्य देशभक्तानां नेपालीनां च हितकल्याणयोः पक्षे कार्यसम्पादक दलस्य रूपेण स्वदलं स्थापनीयम् इति अवोचत्। नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली कथयति नेकपा एमाले दलम् आगामिनि निर्वाचने जनप्रिय कार्यक्रमैः सह जनतायाः समक्षं गमिष्यति। मदन भण्डारी फाउण्डेशन संस्थायाः तृतीयं राष्ट्रिय सम्मेलनं ह्यः काष्ठमण्डपे उद्घाटयन् अध्यक्षः ओली अवदत् नेकपा एमाले दलेन असत्यस्य विरूद्धे विचार प्रवाहणस्य अभियानं संचालयिष्यते। गृहमन्त्री बालकृष्ण खाना निर्धारिते दिनांके एव निर्वाचनं भवितेति भासमानः तस्य प्रचारे संलग्नः भवितुं दलस्य नेतृन् कार्यकर्तृञ्च निर्दिशति। ह्यः रूपन्देही जनपदस्य बुटवल तामनगर फर्साटिक मार्गे निर्मितं दानव नदी सेतुम् उद्घाटयन् गृहमन्त्री खान सर्वकारेण निर्धारिते दिनांके एव निर्वाचनं सम्पादयतेति विषये कमपि भ्रमं न धर्तुम् अन्वरुणत्। तदवसरे गृहमन्त्री खान अमेरिका देशीय सहयोग परियोजना नेपालस्य हिताय वर्तते इति चर्चयन् अगदत् नेपाले विद्युत विकासे परियोजने क्रोशशीला सेत्स्यति। गृहमन्त्री खान अवोचत् बुटवलस्थानस्य मोतीपुरोद्योगिक क्षेत्रे वर्षैः स्थितान् जनान् व्यवस्थाप्य एव औद्योगिक क्षेत्र निर्माणस्य कार्यम् अग्रे वर्धिष्यते। पेयजलमन्त्री उमाकान्त चौधरी कथयति जुम्लास्थिता बृहत् धौलीगाड़ पेयजल योजना धौलीगाड़ पेयजलायोजना सर्वकारस्य प्राथमिकतायां वर्तते। धौलीगाड़ पेयजलायोजनायाः शिलान्यासाय ह्यः जुम्ला जनपदं प्राप्तो मन्त्री चौधरी निर्माण प्रक्रियायां अग्रेसारिता परियोजनेयं यथासमयं निर्मास्यते इति आत्मनोविश्वासोस्तीति अवदत्। धौलीगाड़ पेयजलायोजना अब्जैकस्य षड्विंशतेः कोटीनां च रूप्यकाणां व्ययेन निर्मास्यते इति पेयजलावकर व्यवस्थापन विभागस्य महानिदेशकः सूर्यराजकण्डेलः अज्ञापयत्। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाशरण महत भाषते सत्तारूढ़ गठबन्धनस्य दलानां मध्ये नैर्वाचनिक गठबन्धनस्य सम्भावना अस्ति। नेपाल प्रेस यूनियन संघस्य बांके शाखया ह्यो नेपालगंज स्थाने आयोजिते पत्रकार सम्मेलने प्रवक्ता डाक्टर महत अवहासत कांग्रेस दलाय यही कार्ये सहयोग भवति तदनुसारेणैव निर्णय करिष्यते। असौ अगदत् कांग्रेस दलं चैत्रमासाभ्यन्तरे प्रत्याशिनो निर्धारयैव निर्वाचनं गन्ता। नेता महत प्रतिगृहं गच्छाम कांग्रेस दलं जापयाम इति अभियानं सफलयितुं नेतृन् कार्यकर्तृञ्च प्रतिगृहं गन्तुम् आह्वयत्। नेपाली कांग्रेस दलस्य नेता प्रकाशमान सिंह निगदति राष्ट्राय समाधानं प्रदातुं घटबन्धनस्य सर्वकार निर्मितो वर्तते। नेपाली कांग्रेस दलस्य काष्ठमण्डप जनपदस्य दशमक्षेत्रेण ह्यः आयोजिते कार्यक्रमे नेता सिंह अगदत् संविधानस्य रक्षया राष्ट्राय समाधानं प्रदातुं वर्तमान घटबन्धनस्य सर्वकार संघटितो वर्तते। आगामिनि वैशाखमासे सम्पत्स्यमाने स्थानीय स्तराणां निर्वाचने स्वदलस्य कार्यकर्तृणां भावनां बुद्ध्वा घटबन्धनस्य विषये कांग्रेस दलेन निर्णेष्यते इति नेता सिंह समस्पष्टयत्। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिंगदेन कथयति आन्तरोत्पादनं विना देशं समृद्धिम् अधिगन्तुं न शक्नोति। सिन्धुली जनपदे ह्यः आयोजिते कार्यक्रमे अध्यक्ष लिंगदेन अकथयत् देशे उत्पादितायां विद्युती उत्पादनमूलकेष् कार्येष् प्रयुक्तायां सत्यां देशः आर्थिकरूपेण समृद्धो भविष्यति। नेपाली भाषा साहित्ययोः श्रीवृद्धये विहितम् उल्लेखनीयं योगदानम् आलक्ष्य कालीप्रसाद रिजालः बानिरा प्रज्ञा पुरस्कारेण सम्मानयिष्यते। साहित्यकारस्य डॉ बानिरा गिरेः स्मृतौ स्थापितस्य एतस्य पुरस्कारस्य वित्तराशिः लक्षैकस्य रूप्यकाणां वर्तते। एवमेव पञ्चाशतः सहस्राणां रूप्यकाणां बानिरा पुरस्कारः नेपाली कवितायाः विकासाय प्रापितं योगदानम् आलक्ष्य उषा शेरचन इत्यस्यै प्रदास्यते। एतत् पुरस्कारद्वयमेव आगामिनो वैशाखस्य विंशे दिवसे काष्ठमण्डपे आयोक्ष्यमाणे समारोहे प्रदास्यते इति बानिरा फाउण्डेशन संस्थायाः सदस्य सचिवेन नरेन्द्र राजप्रसाई इत्यनेन प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। संयुक्त राष्ट्रसंघेन विश्वसुखी प्रतिवेदनं सार्वजनिकृतं वर्तते। गत शुक्रवासरे सार्वजनिकृतस्य प्रतिवेदनस्य अनुसारेण अस्मिन् वर्षेऽपि फिनल्याण्डदेशः सर्वाधिक सुखी राष्ट्रस्य रूपेण सूचीकृतो वर्तते। विगत पञ्चवर्षै देशोऽयं सर्वाधिक सुखी राष्ट्रस्य सूच्यामस्ति। नेपालः 85तमे स्थाने वर्तते एवमेव भारतः 37.1% स्थाने समाविष्टोऽस्ति। सूच्याः अनुसारेण चीनदेशः नेपालात् स्थानत्रयात् उपरि 82तमे स्थाने वर्तते। दक्षिण एशिया क्षेत्रस्य सुखी राष्ट्रेष् बंगलादेश 99तमे स्थाने पाकिस्तान देशश्च 83 स्थाने स्तः। 80 29 शततम ख्रीष्टाब्दात् दशकं यावत् विलुप्तानां मूर्तीनां मध्ये मूर्तिद्वयं बेलायत सर्वकारेण नेपाल सर्वकाराय हस्तान्तरितं वर्तते। लण्डन वर्तिनी नेपाली राजदूतावासे आयोजिते विशेष कार्यक्रमे बेलायत देशस्य प्रहरिणा बेलायत देशाय नेपाली राजदूताय ज्ञानचन्द्र आचार्याय मूर्तिद्वयमेतत् हस्तान्तरितं वर्तते इति समाचाराः।